प्रैते वदन्त प्रभजम् वदा भक्राभ्योवाचम् वदताभदद्भ्यः यदत्रयः पर्वताः साकपाशवश्लोकम् घोषम् भरथेन्द्राजसोमिनाः एते वदन्ति शतवत्सहस्रपदभिक्रन्दन्ति हरितेभिरासभिः विश्वे ग्रावाडः सुकृतः सुकृत्यदाहोतुश्चित्पूर्वेहभिरद्यपाशत एते वदन्त्यभिदन्ननामधन्योऽङ्खयन्ते अधिपक्व आमिषे वृक्षस्य शाखा वरुणस्य वप्सतस्ते सोभर्वा वृषभाः प्रेवराविषः बृहद्वदन्ति मदिरेण मन्दिनेन्द्रम् क्रोशन्ताभिदन्ननामध संरभ्याधीरा स्वसभिरनर्तिशरा घोषयन्तः पृथिवीमुपब्दिभिः स्वपर्णावाचमक्रतो पद्यव्या खरे कृष्णा इशिरा अनर्तिषः न्या अन्ययन्त्यपरस्य निष्कृतम् पुरोरेतो दधिरे सौर्यश्विताः उग्रा इव प्रवहन्तः समाजमः साकम् युक्ता वृषणो बिभ्रतो धुराः यच्छ्वसन्तो जग्रसाना अरा विशशृण्व एषाम् प्रोथथो अरपतामिव दशा वनिभ्यो दश कक्षेभ्यो दश योक्त्रेभ्यो दश योजनेभ्यः दशा भीषुभ्यो अर्चदाचरेभ्यो दश धुरो दश युग्धावहद्भ्यः ते अत्र ज्योदश यन्द्रास आशपस्तेषा बाधानम् पर्येति हर्यताम् त ओसुदस्य सौम्यस्यान्दसोऽंशोः पेजोषम् प्रथमस्य भेजिरे ते सोमादो हरि इन्द्रस्य निंसतेऽंशम् दुहन्तो अध्यासते कवि एभिर्दुग्धम् बिवान् सौम्यम् मध्विन्द्रो वर्धते प्रथते वृषाजते वृषा वो अंशर्न किला ऋषाथनेणा बन्तः सदमित्स्थनाशिताः रैवत्येव महसा चारवस्थनजस्य ग्रावाणो अदुषध्वमध्वरम् त्रिदिला अत्रदिलासो अद्रजो श्रवणा अश्रथिता अमृत्यवः अनातुरा अजरास्थावविष्टवस्वपेवसो अदृशिता अदृष्णजः ध्रुवा एव वः पितरो अयुगे युगे क्षेमकामासः सदसो न युञ्जते अजुर्यासो अहरिषाचो अहरित्रव आद्याम् रवेण पृथिवीमशश्रवः तदिद्वदन्त्यत्र यो विमोचने यावन्नन्दस्पा इव घेतुपब्दिभिः वपन्तो बीजमिव धान्याकृतः प्रञ्चन्ति स मन्नमिनन्ति वप्सदः सुते अध्वरे अधिवाचमक्रता क्रीडजो न मातरम् तु दन्ताः विषोमञ्चा सुषवशो मनीषाम् विवर्तन्तामद्रजश्चाजमानाः